गीर्वाणैरथ्यमानो दशमुखनिधनं कोसलेषु ऋष्यशृङ्गे पुत्रीयाम् इष्टिमिष्ट्वा ददुषि दशरथक्ष्माभृते पायसाग्र्यं तद्भुक्त्वा तत्पुरन्ध्रीष्वपि तिसृषु समं जातगर्भासु जातो रामस्त्वं लक्ष्मणेन स्वयमथ भरतेनापि शत्रुघ्नाम्ना कोदण्डी कौशिकस्य क्रतुबरम् अबितुं लक्ष्मणेनानुयातो यातो भूः तातवाचा मुनिकथित मनुद्वन्द्व शान्ताध्वखेदः नृणां त्राणाय बाणैः मुनिवचनबलात् ताटकां पाटयित्वा लब्ध्वास्मात् अस्त्रजालं मुनिवनमगमो देव सिद्धाश्रमाख्यं मारीचं द्रावयित्वा मखशिरसि शरैः अन्यरक्षांसि निघ्नन् कल्यां कुर्वन्नहल्यां पथि पदरजसा प्राप्य वैदेहगेहं भिन्दानश्चान्द्रचूडं धनुः अवनिसुताम् इन्दिरामेव लब्ध्वा राज्यं प्रातिष्ठथास्त्वं त्रिभिरपि च समं भ्रातृवीरैः सदारैः आरुन्धाने रुषान्धे भृगुकुलतिलके सङ्क्रमय्यस्वतेजः याते यातोऽसि अयोध्यां सुखमिह निवसन् कान्तया कान्तमूर्ते शत्रुघ्नेन एकदाथो गतवति भरते मातुलस्याधिवासं तातारब्धोऽभिषेकः तव किल विहतः केकयाधीशपुत्र्या तातोक्त्या यातु कामो वनम् अनुजवधू संयुतः चापधारः पौरान् आरुध्य मार्गे गुहनिलयगतः त्वं जटा चीरधारी नावासन्तीर्य गङ्गाम् अधिपदवि पुनः तं भरद्वाजमारात् नत्वा तद्वाक्यहेतोः अतिसुखम् अवसः चित्रकूटे गिरीन्द्रे श्रुत्वा पुत्रार्तिखिन्नं खलु भरतमुखात् स्वर्गयातं स्वतातं तप्तो दत्त्वाम्बुतस्मै निदधितभरते पादुकां मेदिनीं च अत्रिं नत्वाथ गत्वा वनमतिविपुलं दण्डकं चण्डकायं हत्वा दैत्यं विराधं सुगतिमकलयः चारुभोः शारभङ्गीं नत्वा अगस्त्यं समस्ताशरनिकरसपत्राकृतिं तापसेभ्यः प्रत्यश्रौषीः प्रियैषी तदनु च मुनिना वैष्णवे दिव्यचापे ब्रह्मास्त्रे चापि दत्ते पथि पितृसुहृतं वीक्ष्य भूयो जटायुं मोदात् गोदातटान्ते परिरमसि पुरा पञ्चवट्यां वधूट्या प्राप्तायाः शूर्पणख्याः मदनचलधृतेः अर्थनैर्निःसहात्मा तां सौमित्रौ विसृज्य प्रबलतमरुषा तेन निर्लूननासां दृष्ट्वैनां रुष्टचित्तं खरम् अभिपतितं दूषणं च त्रिमूर्धं व्याहिंसीः आशरानपि अयुद्धसमधिकां तत्क्षणात् अक्षतोष्मा सोदर्या प्रोक्तवार्ताविवश दशमुखादिष्ट मारीच मायासारङ्गं सारसाक्ष्या स्पृहितम् अनुगतः प्रवाधीः बाणघातं तन्मायाक्रन्दनिर्यापित भवदनुजां रावणः तामहार्षीः तेन आर्तोऽपि त्वमन्तः किमपि मुदमधाः तद्वधोपायलाभात् भूयस्तन्वीं विचिन्वन् अहृतदशमुखः त्वद्वधूं मद्वधेनेति उक्त्वा याते जटायौ दिवम् अथ सुहृदः प्रातनोः प्रेतकार्यं गृह्णानं तं कबन्धं जघनिथ शबरीं प्रेक्ष्य पम्पातटे त्वं సంప్రాప్తో వాతసూనుం భృషముదితమనాః పాహి వాతాలయేశ సంప్రాప్తో వాతసూనుం భృషముదితమనాః పాహి వాతాలయేశ. ఓం తత్సతితి శ్రీమన్నారాయణీయే చతుస్త్రింశం దశకం సమాప్తం. శ్రీహరయే నమః. రమారమణ గోవిందా గోవిందా. శ్రీకృష్ణార్పణమస్తు.